इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः नवदिल्ल्यां राष्ट्रिय स्वयं सेवक संघस्य RSS इत्यस्य शताब्दी समारोहे भागं ग्रहीष्यति। शतवार्षिक उत्सवे राष्ट्रिय स्वयं सेवक संघस्य परंपरा तस्य सांस्कृतिक योगदानं देशस्य एकतायां भूमिकां च प्रकाश्यन्ते। अस्मिन् अवसरे प्रधानमन्त्री राष्ट्राय RSS इत्यस्य योगदानस्य विषये विशेषतया प्रकल्पितं प्रैष्य चीटिका मुद्रां च लोकार्पयिष्यति। दिल्ली सर्वकारेण भाजपेति दलस्य वरिष्ठः नेतु दिल्ली नगरस्य प्रथमस्य मुख्य कार्यकारी पार्षदः दिल्ली भाजपेति दलस्य प्रथमस्य अध्यक्षस्य प्रोफेसर विजय कुमार मल्होत्रावर्यस्य निधनस्य अनन्तरं अद्य एकदिवसीयं राजकीय शोकं घोषितम्। मुख्यमंत्री तस्य निधने गभीरं दुःखं प्रकटितवती। सावोचत् यत् राज्य सर्वकारः तस्य अन्त्येष्टिक्रियाः पूर्ण सम्मानेन आचरितव्या इति सुनिश्चितं करिष्यति इति। मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः बिहारस्य मतदातॄणां बिहारस्य मुख्य निर्वाचन अधिकारिणः निर्वाचन निबंधन अधिकारिणां बूथ स्तरीय अधिकारिणां च प्रति धन्यवादः प्रदत्तवान्। द्वाविंशति वर्षाणाम् अनन्तरं बिहार राज्ये विशेष गहन पुनरीक्षणस्य सफलतया पूर्तिं सुनिश्चेतुं दलनेतृभ्यः प्रसारमाध्यमानां च प्रति सः कृतज्ञतां प्रकटितवान्। निर्वाचनायोगः ह्यः बिहार विधानसभा निर्वाचनस्य अन्तिमा मतदाता सूची प्रकाशितवान्। अस्य अन्तिमसूच्याः अनुसारं 42,00,007 कोटिमतदातारः सूच्यां समाविष्टाः सन्ति, ये आगामिषु विधानसभानिर्वाचने स्वमतस्य प्रयोगं कर्तुं शक्नुवन्ति। जैवप्रौद्योगिकीविभागस्य उत्तरप्रदेशसर्वकारस्य च मध्ये सन्धिपत्रस्य हस्ताक्षरस्यावसरे केन्द्रीय विज्ञान तंत्रज्ञान मंत्री जितेन्द्र सिंह अवदत् यत् भारतस्य औषध निर्यातः अस्मिन् वर्षे वर्तमानस्य 27,00,000,000,000 डॉलरतः 30,00,000,000,000 डॉलर परिमितः भविष्यति इति।
India is already being described as the pharmacy of the world. Very fast in the last 10 years we have succeeded in moving. Like for example, we started from just about $10 million in 2014 when this government came. Today we are $130 million and we hope to be 130 by 2030 and we are already crossing 100 by now. So it's been a very fast journey over the last one decade.
Philippines देशे 9.6 तीव्रतायाः भूकम्पेन 22 जनाः मृताः। अमेरिकी भूवैज्ञानिक सर्वेक्षणानुसारं भूकम्पः भूतलात् केवलं 10 किलोमीटर अधः अभवत्। तस्य केन्द्रबिन्दुः पालोम्पोन् नगरात् पश्चिमदिशि सेबुप्रान्तस्य बोगो नगरस्य समीपे आसीत्। भारत ऋतु विभागस्य कोलकाता नगरस्य अलीपुर ऋतु विभागीय कार्यालयेन दक्षिणवंगस्य जनपदेषु मेघगर्जनेन सह वृष्टेः पूर्वानुमानं प्रकटितमस्ति। दक्षिण 24 परगना क्षेत्रे पूर्वमेदिनीपुर क्षेत्रे हावड़ा क्षेत्रे च प्रचण्डतः अतिवृष्टिः भवितुमर्हति। रक्षामन्त्री राजनाथ सिंहः अवोचत् यत् भारतीय सशस्त्रबलानां मध्ये परस्परं सञ्चालनक्षमता ऐक्यं च वर्तमानसमये सफलसञ्चालनस्य आवश्यकता जायेते। राजधान्यां नवदिल्ल्यां ह्यः सैन्यत्रयस्य संगोष्ठीं सम्बोधयन् श्रीसिंहः एतत् अवोचत्। तेन उक्तं यत् एतविंश्यां शताब्द्याम् अपायाः संवर्धिताः। महिलानाम् एकदिवसीय विश्वचषक क्रिकेट स्पर्धायां ह्यः प्रथमायां स्पर्धायां भारतेन श्रीलंकादलं 69 धावनांकैः पराजितम् इति वार्ताः।